अविरभोन्महिमाघो ओ नमेषाम् विश्वम् जीवन्तमसो निरमोचि महिद्योतिः पितृभर्तत्तमागा दुरः पन्था दक्षिणाया अदर्शि उच्चादिवि दक्षिणावन्तो अस्तुर्ये अश्वदाः सहते सूर्येण हिरण्यदा अमृतत्वम् भजन्ते वासोदाः सोमप्रतिरन्त आजोः दैवी पोर्तिर्दक्षिणादेव यज्ञानकपारिभ्यो न हि ते पृणन्ति अथा नरः प्रयत दक्षिणा सोमद्यभिजा बहवः पृणन्ति शतधारम्बाजुभर्कम् स्वरविदम् नृचक्षसस्ते अभिचक्षते हविः ये पृणन्ति प्रजयच्छन्ति सङ्गमे ते दक्षिणाम् दुहते सप्तमादरम् दक्षिणावान् प्रथमो होत एति दक्षिणावान् ग्रामणेरग्रमेति तमेव मन्य नृपतिञ्जनानाञ्जः प्रथमो दक्षिणामाभिवाज तमेव रशन्तव ब्रह्माणमाहुरयज्ञम् सामगामुग्धशासम् स शुक्रस्य तन्वो वेदधिस्रोजः प्रथमो दक्षिणजारराध दक्षिणाश्वम् दक्षिणागान् ददाति दक्षिणाचन्द्रमुदयद्धिरण्यम् दक्षिणान्नम् वनुतेजो न आत्मा दक्षिणाम् वर्म कृणुते विजानन् न भोजामम् भ्रुर्नन्यर्थमे जर्नरिष्यन्ते न व्यथन्तेह भोजाः इदम् यद्विश्वम् भुवनम् स्वश्चैतत्सर्वम् दक्षिणेभ्यो ददाति भोजाजिज्ञस्वरभिञ्जा निमग्रे भोजाजिज्ञुरबध्वा अञ्जा सुवासाः भोजाजिज्ञुरन्तः पेजम् सुरा आजा भोजाजिज्ञुर्ये अहोताः प्रयन्ति भोजाजाश्वम् संव्रजन्त्याशुम् भोजाजास्ते कन्या आशुम्भमाना भोजस्येदम् पुष्करिणी भवेष्म परिष्कृतम् देवमानेव चित्रम् भोजमश्वा सुष्ठुवाहो वहन्ति सुवृद्रथो वर्तते दक्षिणायाः भोजम् देवासोऽवताभरेषु भोजः शत्रोऽन्समनेकेषु जेता